कामाक्षिदेव्यम्ब तवाद्रदृष्ट्या मूकस्वयम् मूककवे यथासीत् तथा कुरु त्वम् परमेश जाये त्वत्पादमूले प्रणतम् दयाद्रे उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरे उत्तिष्ठ जगदाधारे त्रैलोक्यम् मङ्गलम् कुरु शृणोषि कश्चिध्वनिरुत्थितोऽयम् मृदङ्गभेरीपटहानकानाम् वेदध्वनिम् शिक्षितभूषुराणाम् शृणोषि भद्रे कुरु सुप्रभातम् शृणोषि भद्रे ननु शङ्खघोषम् वैताळिकानाम् मधुरम् च गानम् शृणोषि मातपितकुक्कुटानाम् ध्वनिम् प्रभाते कुरु सुप्रभातम् मातर्निरीक्ष्य वदनम् भगवान् शशाङ्को लज्जान्वितः स्वयमहो निलयम् प्रविष्टः द्रष्टुम् त्वदीय वदनम् भगवान् दिनेशो ध्यायाति देवि सदनम् कुरु सुप्रभातम् पश्याम्ब केचिद्धृतपूर्णकुम्भाः केचिद्दयार्द्रे धृतपुष्पमालाः काचिः शुभाङ्गा ननु वाद्यहस्ताः तिष्ठन्ति तेषाम् कुरु सुप्रभातम् भेरी मृदङ्गपणवानकवाद्यहस्ताः स्तोतुम् महेश दयिते स्तुतिपाठकास्त्वा तिष्ठन्ति देवि समयम् तव काङ्क्षमाणा युत्तिष्ठ दिव्य शयनात् कुरु सुप्रभातम् मातर्निरीक्ष्य वदनम् भगवान् त्वदीयम् नैवोत्थितः शशिधिया शयितस्तवाङ्के सम्बोधयाशु गिरिजे विमलम् प्रभातम् जातम् महेश दयिते कुरु सुप्रभातम् अन्तश्चरन्त्यास्तव भूषणानाम् झल् झल् ध्वनिम् नूपुरकङ्कणानाम् श्रुत्वा प्रभाते तव दर्शनार्थी द्वारि स्थितोऽहम् कुरु सुप्रभातम् वाणी पुस्तकमम्बिके गिरिसुते पद्मानि पद्मासना शम्भा त्वम् वरडम्बरम् गिरिसुता गङ्गा च गङ्गाजलम् काळीताळयुगम् मृदङ्गयुगलम् वृन्दा च नन्दा तथा नीला निर्मल दर्पण धृतवती तासाम् प्रभातम् शुभम् उत्थाय देवि शयनाद् भगवान् पुरारिः स्नातुम् प्रयाति गिरिजे सुरलोकनद्याम् नैको हि गन्तुमनघेरमते दयार्द्रे युत्तिष्ठ देवि शयनात् कुरु सुप्रभातम् पश्याम्ब केचित् फलपुष्पहस्ताः केचित् पुराणानि पठन्ति मातः पठन्ति वेदान् भगवस्तवाग्रे तेषाम् जनानाम् कुरु सुप्रभातम् लावण्यशेवधिमवेक्ष्य शिरम् त्वदीयम् कन्दर्पदर्पदळनोऽपि वशम् गतस्ते कामारि चुम्बित कपोलयुगम् त्वदीयम् द्रष्टु स्थिताः वयमये कुरु सुप्रभातम् गाङ्गेयतोऽयमवगाह्य मुनीश्वरास्त्वाम् गङ्गाजलैः स्नपयितुम् बहवो घटांश्च भृत्वा शिरः सुभवतीमभिकाङ्क्षमाणाः द्वारि स्थिता हि वरदे कुरु सुप्रभातम् मन्दारकुन्दकुसुमैरपि जातिपुष्पैः मालाकृता विरचितानि मनोहराणि माल्यानि दिव्यपदयोरपि दातुमम्ब तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् काञ्चीकलापपरिरम्भनितम्ब बिम्बम् काश्मीरचन्दन विलेपित कण्ठदेशम् कामेश चुम्बित कपालमुदारनासा द्रष्टुः स्थिताः वयमये कुरु सुप्रभातम् मन्दस्मितम् विमलचारु विशालनेत्रम् कण्ठस्थलम् कमलकोमलगर्भगौरम् चक्राङ्कितम् च युगलम् पदयोर्मृगाक्षी द्रष्टुः स्थिताः वयमये कुरु सुप्रभातम् मन्दस्मितम् त्रिपुरनाशकरम् पुरारेः कामेश्वर प्रणयकोपहरम् स्मितम् ते मन्दस्मितौ विपुलः समवेक्षितुम् ते मातस्थिताः वयमये कुरु सुप्रभातम् माता शिशूनाम् परिरक्षणार्थम् न चैव निद्रावशमेति लोके मातात्रयाणाम् जगताम् गतिस्त्वम् सदा विनिद्रा कुरु सुप्रभातम् मातर्मुरारिकमलासनवन्दिताङ्घ्याः हृद्यानि दिव्यमधुराणि मनोहराणि श्रोतुम् तवाम्ब वचनानि शुभप्रदानि द्वारि स्थिताः वयमये कुरु सुप्रभातम् दिगम्बरो ब्रह्मकपालपाणिः विकीर्णकेशफणिवेष्टिताङ्गः तथापि मातस्तव देवि सङ्गात् महेश्वरो भूत्कुरु सुप्रभातम् अयि तु जननि दत्तस्तन्यपानेन देवी द्रविडशिशुरभूद्वैज्ञानसम्बन्धमूर्तिः द्रविडतनयभुक्तक्षीरशेषम् भवानी वितरसि यदि मातः सुप्रभातम् भवेन्मे जननि तव कुमारस्तन्यपानप्रभावात् शिशुरपि तव भर्तुः कर्णमूले भवानि प्रणवपदविशेषम् बोधयामास देवी यदि मयि च कृपाते सुप्रभातम् भवेन्मे त्वम् विश्वनाथस्य विशालनेत्रा हालास्य नाथस्य नु मीननेत्रा एकाम्रनाथस्य नु कामनेत्रा कामेशजाये कुरु सुप्रभातम् श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये श्रीचन्द्रशेखर गुरुर्भगवान् शरण्ये त्वत्पादभक्तिभरित फल पुष्पपाणिः एकाम्रनाथ दयिते तव दर्शनार्थी तिष्ठत्ययम् यतिवरो मम सुप्रभातम् एकाम्रनाथ दयिते ननु कामपीठे सम्पूजितासि वरदे गुरुशङ्करेण श्रीशङ्करादिगुरुवर्य समर्चिताङ्घ्रिम् द्रष्टुः स्थिताः वयमये कुरु सुप्रभातम् दुरितशमनदक्षौ मृत्युसन्त्रासदक्षौ शरणमुपगतानाम् मुक्तिदौ ज्ञानदौतौ अभयवरदहस्तौ द्रष्टुमम्ब स्थितोऽहम् त्रिपुरदलन जाये सुप्रभातम् ममार्ये मातस्त्वदीय चरणम् हरिपद्मजाद्यैः वन्द्यम् रथाङ्ग सरसीरुह शङ्ख चिह्नम् द्रष्टुम् च योगि जनमानस राजहंसौ द्वारि स्थितोऽस्मि वरदे कुरु सुप्रभातम् पश्यन्तु केचिद्वदनम् त्वदीयम् स्तुवन्तु कल्याणगुणांस्तवान्ये नमन्तु पादाब्जयुगम् त्वदीयाः द्वारि स्थितानाम् कुरु सुप्रभातम्। केचित् सुमेरो शिखरेति तुङ्गे, केचिद् मणिद्वीपवरे विशाले, पश्यन्तु केचित् त्वमृदाब्धिमध्ये, पश्याम्यहम् त्वामिह सुप्रभातम्। शम्भोर्वामाङ्कसंस्था शशिनिभवदनाम् नीलपद्मायताक्षी श्यामाङ्गाम् चारुहासाम् निबिडतरकुचा पक्वबिम्बाधरोष्टी कामाक्षी कामदात्री कुटिलकचभरा भूषणै भूषिताङ्गी पश्यामः सुप्रभाते प्रणतजनिमता अद्य नः सुप्रभातम्। कामप्रदाकल्पतरुर्विभासि नान्या गतिर्मे ननु चातकोऽहम् वर्षस्य मोघः कनकाम्बुधाराः काश्चित्सुधाराः मयि कल्पयाशु। त्रिलोचन प्रियाम् वन्दे वन्दे त्रिपुरसुन्दरीम् त्रिलोकनायिकाम् वन्दे सुप्रभातम् ममाम्बिके। कामाक्षि देव्यम्ब तवाददृष्ट्या कृतम् मयेदम् खलु सुप्रभातम्। सद्यः फलम् मे सुखमम्ब लब्धम् तथा च मे दुःखदशा गता हि। एवा प्रभाते पुरतस्तवार्ये पठन्ति भक्त्या ननु सुप्रभातम्। शृण्वन्ति एवा त्वयि बद्धचित्ताः तेषाम् प्रभातम् कुरु सुप्रभातम्।